एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षश्च केपी शर्मा ओली वदति राष्ट्रस्य तीव्र विकासस्य गतौ अग्रेवर्धनस्य समये सांसदानां क्रय विक्रयणयोः प्रदूषित क्रीडायाः पुनः प्रारभणस्य पश्चात् प्रतिनिधिसभां विघटय्य नवीन जनादेशाय गन्तुम् निर्णीतमस्ति। प्रेस संघटन नेपालस्य द्वितीयं राष्ट्रिय मेलनं गतदिने काष्ठमण्डपे उद्घाटयन् प्रधानमन्त्री ओली सर्वकारस्य तीव्र विकासस्य गत्या सञ्चालनस्य समये अवरोध सर्जनस्य सन्दर्भ उद्भावयन् अवासत अवरोधस्य मध्ये विकास समृद्ध्यो यात्रायां सर्वकारः दलं च दृढतया अग्रे प्रवर्धेते। एकस्यैव वामदलस्य परिकल्पनया दलद्वयम् एकीकृत्य आधुनिकं विकसितं च नेपालं निर्मातुं सक्रियतायां सत्यमपि दलाभ्यन्तरादेव उचित कार्याय कोऽपि सहयोगो न प्राप्त इति प्रधानमन्त्रिणा ओलिना भाषितम्। प्रधानमन्त्री ओली केषामपि आक्रोशोत्तेजन पूर्वाग्रहाणां प्रतिशोधेन विना प्रकाशमय भविष्यस्य गन्तव्येन सर्वकारः स्पष्टरूपेण अग्रे वर्धितोस्तीति अवोचत। मेलने नेकपा दलस्य सचिवालय सदस्य उप प्रधानमन्त्री च ईश्वर पोखरेल नेकपा दलस्य अभ्यन्तरे उत्पन्ना विभक्ता परिस्थिति नै सहसा उत्पन्ना परम् एकता धरणस्य समयादेव एवंविध विवादस्य भ्रूणानि दृष्टानीति अवोचत। उप प्रधानमन्त्री पोखरेल कतिचित् सञ्चारगृहि प्रत्यक्षत असत्यानि तथ्यहीनानि आपराधिक प्रकारकाणि च विषयवस्तूनि प्रकाश्य जनतायै असत्य सूचना दत्ता स्थिति चर्चयन् पित पत्रकारितातः सचेष्टाः भवितुम् अन्वरुणत। नेकपा दलस्य महासचिवः अर्थमन्त्री च विष्णुप्रसाद पौडेलः नेकपा दलस्य अध्यक्षेण पुष्पकमलदाहाल प्रचण्डेन अध्यक्षाय प्रधानमन्त्रिणे च केपी शर्मा ओलिने आक्षिप्ते अभियोगपत्रे प्रत्यावर्तिते सति दलैकता पूर्ववत् स्थास्यति इति चर्चयन् अवोचत्। प्रतिनिधिसभायाः पुनस्थापनायाः स्थितेः अभावात् निर्वाचनस्य पूर्वकार्याय सर्वकारः दलं च सक्रिय स्तः। दलीय सचिवालय सदस्य गृहमन्त्री च रामबहादुर थापा सर्वकारेण निर्वाचनस्य पूर्वकार्यं प्रारब्धम् अस्ति इति वर्णयन् अगदत् प्रतिगमनस्य सहयोगिनो भूत्वा कतिचित् नेतार प्रखण्डनेन गता सन्ति। नेकपा दलस्य स्थायी समिते सदस्य ऊर्जो जलस्रोत सिंचन मन्त्री च टोपबहादुर रायमाझी अतर्कयत् दले निर्वाचनं विना चिरकाल पर्यन्तम् आत्मनाम एव नेतृत्वे स्थापनात्मिक्या प्रवृत्त्या ग्रस्तै नेतृभिः आत्मनाम एव अध्यक्षस्य नेतृत्वे विद्यमानस्य सर्वकारस्य अर्थात् पातनम् अपेक्षा देशे अस्थिरतां स्रष्टुम् अपेक्षितम् इति हेतोः प्रधानमन्त्रिणा ओलिना बाध्यात्मक रूपेण प्रतिनिधिसभा विघटिता वर्तते। मेलने संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ सर्वकारः श्रमजीवी पत्रकाराणां हिताधिकारयोः कृते सदैव पत्रकारैः सह अस्ति इति समस्पष्टयत्। भारत सर्वकारेण नेपालाय अनुदान स्वरूपेण प्रदत्तं कोरोना विरुद्धस्य दशलक्षाणां परिमाणस्य टीकाकरणं ह्यो हस्तान्तरितं वर्तते। प्रधानमन्त्रिणे केपी शर्मा ओलिने नेपालस्य कृते भारतस्य राजदूतः विनय मोहन क्वात्रा प्रधानमन्त्री निवासे आयोजिते कार्यक्रमे टीकाकरणं हस्तान्तरितवान्। तदवसरे प्रधानमन्त्री ओली उदारतापूर्वकं नेपालाय अनुदान स्वरूपेण टीकाकरणस्य प्रदानम् आलक्ष्य प्रधानमन्त्रिणं नरेन्द्र मोदिनं भारत सर्वकाराय तत्रत्य जनताञ्च प्रति हार्दिकम् आभारं व्यक्तवान्। टीकाकरणं वायुयानेन आनीतम् आसीत्। हस्तान्तरण कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्री हृदय त्रिपाठी अवासत भारत सर्वकारेण प्रदत्तेन टीकाकरणेन सर्वकार सर्वकारयोः मध्ये एव न जनस्तरं यावत् देशद्वयस्य सम्बन्धः प्रतिबिम्बितोऽस्ति। कार्यक्रमे नेपालाय भारतीय राजदूतः विनय मोहन क्वात्रा अगदत् कोरोना संक्रमण विरुद्धस्य अभियानेन सह टीकाकरण कार्यक्रमेऽपि भारतेन नेपालेन सहितानि प्रतिवेशी राष्ट्राणि प्राथमिकतायां स्थापितानि सन्ति। नेपालेन कोविड ऊनविंशतेः महामारीं प्रतिकर्तुम् अत्यावश्यकौषधीनां टीकाकरणस्य च सुनिश्चिततायाः अपरिहार्यतायां बलं प्रदत्तमस्ति। ऐशयिक सहयोग संवादस्य नवप्राकृतिक सुरक्षित स्वस्थ पर्यटन विषयकं टर्की देशस्य राजधान्यां अंकरा स्थाने आयोजितं सप्तदशं मन्त्रिमण्डलस्तरीयोपवेशनम् अप्रत्यक्षरूपेण सम्बोधयन् राष्ट्रमन्त्री प्रदीप कुमार गेवाली अवासत कोविड ऊनविंशतेः महामारी विरुद्धस्य युद्धे ऐशयिक सहयोग संवादस्य सदस्य राष्ट्राणां नैजक्षेत्रस्य व्यापारिक प्रतिष्ठानानां च सहयोगः सहकार्यञ्च अपरिहार्यस्तः। नेपाले ह्या 37 अधिक 37 जनेषु कोरोना संक्रमण पुष्टिभूतम वर्तते। नेपाले ह्यस्तनावधि 7390 अधिक 77 सक्रिय संक्रान्ता जना सन्ति। कोरोना संक्रमणेन ह्यातिरिक्त 4 जना मृता। एतदनु नेपाले ह्यस्तनावधि संक्रमणेन मृतानां जनानां समग्र संख्या 179 प्राप्यते। स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्य अतिरिक्त 27 संक्रान्ता जना संक्रमणमुक्ता सन्तीति मन्त्रालयेन ज्ञापितमस्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा अमेरिका देशस्य 47 राष्ट्रपतेः कार्यभारस्य वहनं प्रति जो बाइडेन इत्यस्मै ह्यो वर्धापन ज्ञापनेन एतस्य सफल कार्यकालस्य कामना विहिता अस्ति। अमेरिका देशस्य राष्ट्रपते बाइडेन इत्यस्मै प्रेषिते वर्धापन सन्देशे राष्ट्रपतिना भण्डारिणा नेपाल अमेरिका देशयोः सम्बन्ध सदैव सुमधुरोऽस्तीति उल्लिखन्त्या नेपालस्य विकासे अमेरिका देशात् प्राप्तः सहयोगः प्रशंसितोऽस्ति। एवमेव उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन कमलादेवी ह्यारिस इत्यनया अमेरिका देशस्य उपराष्ट्रपतेः पदवहनम् आलक्ष्य तस्य वर्धापन सन्देशं प्रेषयता अमेरिका देशस्य प्रथमोपराष्ट्रपतेः पदासीनता प्रशंसिता अस्ति। प्रधानमन्त्री केपी शर्मा ओली स्वकीय वर्धापन सन्देशे अमेरिका देशस्य राष्ट्रपतेः जो बाइडेन इत्यस्य सक्षम नेतृत्वे अमेरिका देशेन निरन्तरं प्रगति समृद्धिश्च अवाप्स्यते इति विश्वासं व्यक्तवान्। सर्वोच्च न्यायालये प्रतिनिधि सभायाः विघटनस्य विरुद्धे पञ्जीकारितानाम् आदेशाभियाचन निवेदनानां श्रवणं श्रवणस्य क्रमे एव अद्य विधीयते। सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठे निवेदकानां पक्षतः विधिव्यवसायिनां विमर्शनस्य विद्यमानत्वात् विमर्शनस्य क्रमे एव अपरं श्रवणम् अद्य विधीयते। सांविधानिक न्यायपीठे विहितं ह्यस्तनं विमर्शनमपि प्राप्त बहुमतेन प्रधानमन्त्रिणा विहितेन संसदो विघटनस्य विषयेण वैधानिकता प्राप्यते न वेति विषये केन्द्रितमासीत्। विमर्शने विधिव्यवसायिभिः विघटन सम्बद्धस्य विषयस्य सूचना राजपत्रे प्रकाशितो नास्तीति विषयस्य उत्थापनस्य अनन्तरं न्यायपीठेन सर्वकारीय पक्षात् राजपत्रस्य सूचना मानेतुम् आदिष्टमस्ति। नेपाली कांग्रेस दलेन प्रतिनिधि सभाया विघटनस्य विरुद्धे ह्यो वडा क्षेत्रस्तरे शान्तिपूर्ण प्रदर्शनं विहितम्। प्रतिनिधि सभाया विघटनस्य विरुद्धे विधीयमानस्य शान्तिपूर्ण विरोध प्रदर्शनस्य नैरन्तरी स्वरूपेण ह्योऽपि देशव्यापी रूपेण वडा क्षेत्रस्तरे प्रदर्शनं विहितमिति नेपाली कांग्रेस दलेन ज्ञापितं वर्तते। अत्रान्तरे नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विदेन ह्यो विज्ञप्तिं प्रकाश्य कुशासनस्य भ्रष्टाचारस्य च विरुद्धे कांग्रेस दलेन सर्वदैव सावधानाः विधीयन्ते इत्युक्तं वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य दाहाल नेपाल समूहेन प्रतिनिधि सभायाः विघटनस्य विरुद्धे विहितं जनप्रदर्शनं मर्यादितं कारयितुं निर्धारितान् समाघोषान् एव उच्चारयितुञ्च निर्देशिका क्रियान्विता अस्ति इति समाचारः।